घेरंड संहितायां द्वितीयोपदेशः अथासन प्रकरणम् आसनानां भेदाः घेरंडुवाच आसनानि समस्तानि यावन्तो जीवजन्तवः चतुरशीतिलक्षाणि शिवेन कथितानि च तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतं तेषां मध्यमर्त्यलोके द्वात्रिंशदासनं शुभं सिद्धं पद्मं तथा भद्रं मुक्तं वज्रञ्च स्वस्तिकं सिंहञ्च गोमुखं वीरं धनुरासनमेव च मृतं गुप्तं तथा मत्स्यं मत्स्येन्द्रासनमेव च गोरक्षं पश्चिमोत्तानम् उत्कटं सङ्कटं तथा मयूरं कुक्कुटं कूर्मं तथा चोत्तानकूर्मकम् उत्तानमण्डुकं वृक्षं मण्डुकं गरुडं वृषं शलभं मकरं मूष्ट्रं भुजङ्गं योगमासनं द्वात्रिंशदासनानि तु मर्त्ये सिद्धिप्रदानि च सिद्धासनम् योनिस्थानकमङ्घ्रिमूलघटिकं सम्पीड्य गुल्फेतरं मीण्ड्रे सम्प्रणिधाय तं तु चिबुकं कृत्वा हृदि स्थायिनं स्थाणुसंयमतेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरं मोक्षं चैविधीयते फल्करम् सिद्धासनं प्रोच्यते पद्मासनं वामोरुपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरुपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं मालोकयेत् एतद्व्याधिविनाशकारणपरं पद्मासनं प्रोच्यते भद्रासनं गुल्फौ च वृषणस्याधौ व्युत्क्रमेण समाहितः पादाङ्गुष्ठौ कराभ्याञ्च धृत्वा च पृष्ठदेशतः जालन्धरं समासाद्य नासाग्रम् अवलोकयेत् भद्रासनं भवेदेतत् सर्वव्याधिविनाशकम् मुक्तासनं पायुमूले वां गुल्फं दक्षगुल्फं तथोपरि शिरोग्रीवासमं कार्यं मुक्तासनं तु सिद्धिदं वज्रासनं जङ्घाभ्यां वज्रवत् कृत्वा गुदपार्श्वे पादौ उभौ वज्रासनं भवेदेतद् योगिनां सिद्धदायकम् स्वास्तिकासनं जानुर्वोरन्तरं कृत्वा योगी पात्तले उभे ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते सिंहासनं गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ चितिमूलो भूमिसंस्थं कृत्वा चाजानुनोपरि व्यक्तवक्त्रुजलन्ध्रं च नासाग्रम् अवलोकयेत् सिंहासनं भवेदेतत् सर्वव्याधिविनाशकम् गोमुखासनं पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् स्थिरकायं समासाद्य गोमुखं गोमुखाकृतिः वीरासनं एक पादमथ एकस्मिन् विन्यसेदुरु संस्थितम् इतरस्मिंस्तथा पश्चात् वीरासनम् इति स्मृतम् धनुरासनम् प्रसार्य पादौ भुवि दण्डरूपौ करौ च पृष्ठे धृतपादयुग्मम् कृत्वा धनुस्तुल्यविवर्तिताङ्गम् निगद्य योगी धनुरासनं तत् मृतासनम् उत्तानं सववद् भूमौ शयानं तु शवासनम् शवासनं स्वं हरं चित्तविश्रान्तिकारणं गुप्तासनं जानुर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् पादोपरि च संस्थाप्य गुदं गुप्त आसनं विदुः मत्स्यासनम् मुक्तपद्मासनम् कृत्वा उत्तानशयनं चरेत् कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगः मत्स्येन्द्र आसनम् उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः नम्राग्गं वामपादं हि दक्षजानुपरि न्यषेत् तत्र याम्यं कूर्परं च याम्येकरे च वक्त्रकं भ्रोर्मध्ये गतां दृष्टिं पीठं मत्स्येन्द्रम् उच्यते गोरक्षासनम् जानुर्वोरन्तरे पादौ तानौ व्यक्त संस्थितौ गुल्फौ चाच्छादस्ताभ्याम् उत्तानाभ्याम् प्रयत्नतः कण्ठसङ्कोचनं कृत्वा नासाग्रम् अवलोकयेत् गोरक्षासनमेत्याह योगिनां सिद्धिकारणम् पश्चिमोत्तान आसनम् प्रसार्य पादौ भुवि दण्डरूपौ सन्न्यस्तभालं चितियुग्ममध्ये यत्नेन पादौ च धृतौ कराभ्यां योगीन्द्रपीठं पश्चिमोत्तानमाहुः उत्कट आसनम् अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फे चखे गतौ तत्रोपरि गुदं न्यस्य विज्ञेयम् उत्कटासनम् सङ्कटासनम् वामपादं चितेर्मूलं सन्न्यस्य धरणीतले पाददण्डेन याम्येन वेष्टयेद् वामपादकम् जानुयुग्मे करयुग्म एतत् सङ्कटम् आसनम् मयूरासनम् धरामवष्टभ्य करयोस्थलाभ्याम् तत्कर्पूरे स्थापितनाभिपार्श्वम् उच्चासने दण्डवदुत्थिताखे मायूरमेतत् प्रवदन्ति पीठम् कुक्कुटासनम् पद्मासनं समासाद्य जानुर्वोरन्तरे करौ कूर्पराभ्यां समासीन उच्चस्थः कुक्कुटासनम् कूर्मासनम् गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ ऋजुकाय शिरो ग्रीवं कूर्मासनम् इति रितम् उत्तान कूर्मकासनम् कुक्कुटासनं बन्धस्थं कराभ्यां धृतकन्धरम् पीठं कूर्वदुत्तानमेतदुत्तान् कूर्मकम् मण्डुकासनम् पादतलौ पृष्ठदेशे अङ्गुष्ठे द्वे च संस्पृशेत् जानुयुग्मं पुरस्कृत्य साधयेन्मण्डुकासनम्। उत्तान्मण्डुकासनम्। मण्डुकासन्मध्यस्थं कूर्पराभ्यां धृतं शिरः। एतद्भिक्वदुत्तानम् एतदुत्तान्मण्डुकम्। वृक्षासनम्। वामुर्मूलदेशे च याम्यं पादं निधायतु। तिष्ठेत्तु वृक्षवद्भूमौ वृक्षासनम् इदं विदुः। गरुडासनम्। जङ्गुरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना जानुपरिकर्युग्मं गरुडासनम् मुच्यते। वृषासनम्। याम्यगुल्फे पायुमूलं वामभागे पदेतरं विपरीतं स्पृशेद् भूमिं वृषासनम् इदं भवेत्। शलभासनम्। अध्यास्यशेते करयुग्मवक्षो भूमिमवस्तभ्य करयोस्तलाभ्यां पादौ च शून्ये च वितस्ति चोर्ध्वं वदन्ति पीठं शलभं मुनीन्द्राः। मकरासनम्। अध्यास्य शेते हृदयं निधाय भूमौ च पादौ च प्रसार्यमाणौ शिरश्च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत्। ऊष्ट्रासनम्। अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् आकुञ्चये सम्यक् उदरस्य गाढम् ऊष्ट्रञ्च पीठं योगिनो वदन्ति। भुजङ्गासनम्। अङ्गुष्ठनाभिपर्यन्तमधो भूमौ विन्यन्यसेत् कराभ्याञ्च धरां धृत्वा ऊर्ध्वशीर्षः फणीव हि। देहाग्निवर्धते नित्यं सर्वरोगविनाशनम्। जागर्ति भुजगी देवी भुजङ्गासन साधनात्। योगासनम्। उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् पूरकैर्वायुमाकृष्य नाशाग्रमवलोकयेत्। योगासनं भवेतेतत् योगिनां योगसाधने। इति श्रीघेरण्डसंहितायां घेरण्डचण्डिकापालिसंवादे द्वात्रिंशदासनवर्णनं नाम द्वितीयोपदेशः।